इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। होर्मू जलडमरू मध्ये इत्यनेन माध्यमेन एलएनजी इत्यस्य जलयान प्रेषणस्य पुनः प्रारम्भात् अनन्तरं भारत सर्वकारेण प्राकृतिकवायु आपूर्तौ आपत्कालिकाः प्रतिबन्धाः निरस्तीकृताः। केन्द्रीय ग्रामीण विकास मंत्री शिवराज सिंह चौहान विकसित भारत रोजगार आजीविका मिशन ग्रामीण अधिनियमस्य अन्तर्गतं राज्येभ्यः 25,000 कोटि रूप्यकाणां वित्तीय सहायतां प्रदत्तवान्। केन्द्र सर्वकारेण मेटा संस्थायै इंस्टाग्राम मञ्चात् बाल शोषण सम्बद्ध विज्ञापनानां निष्कासनस्य आदेशः प्रदत्तः। सहैव 7 दिनेषु स्पष्टीकरणं प्रस्तोतुं निर्देशाः अपि प्रदत्ताः। अद्य छत्तीसगढ़स्य सुप्रसिद्धा पांडवनी गायिका तीजनबाई दिवंगता। राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमंत्री च तस्याः निधने गभीरं शोकं प्रकटितवन्तः। भारतीय ऋतु विज्ञान विभागेन अद्य गुजराते कोंकणे गोवायां मध्य महाराष्ट्रे तथा ओडिशा राज्ये च अतिवृष्टेः संभावनामालक्ष्य रक्त संचेतना घोषिता। अपि च आईसीसी महिला वर्गस्य 20-प्रति-20 विश्व चषक क्रिकेट क्रीडा स्पर्धायाः अन्तिम स्पर्धा अद्य सायंकाले लंदन नगरे भविष्यति। अस्यां स्पर्धायां इंग्लैंड दलम् ऑस्ट्रेलिया दलेन सह स्पर्धिष्यते। अथ वार्ताः विस्तरेण। प्रशासनेन द्रवीय प्राकृतिक वायुः आपूर्तिमालक्ष्य आपत्कालिकाः प्रतिबन्धाः निरस्ताः। अयं निर्णयः पश्चिम एशियायां संघर्षे युद्धविरामानन्तरं होर्मुज जलडमरू मध्यमार्गेण प्राकृतिक वायुः आपूर्तेः पुनः प्रारम्भे सति कृतः। पेट्रोलियम प्राकृतिक वात्येन्धन मन्त्रालयेन अधिसूचनायामुक्तं यत् 26,000 प्राकृतिक वायु आपूर्ति नियमनादेशः इत्यस्मिन् संशोधनं कृतम्। अस्मिन् संशोधने तानि प्रमुखानि आपत्कालिकानि प्रावधानि निरस्तानि सन्ति येषां माध्यमेन प्रशासनं देशे उत्पादितस्य प्राकृतिकवायोः तथा आयातितस्य द्रवीय प्राकृतिकवायोः आवंटने प्राधान्यं दातुम् अनुमतिः आसीत्। होर्मु जलडमरु मध्यात् द्रवीय प्राकृतिकवायोः आपूर्तौ व्यवधानस्य अनन्तरम् आवश्यकवस्तु अधिनियमस्य अन्तर्गतम् अस्य वर्षस्य मार्च मासे आपत्कालिकाः आदेशाः प्रवर्तिताः आसीत्। केन्द्रीय ग्रामीण विकास मंत्री शिवराज सिंह चौहान जुलाई मासस्य प्रथम दिनांकात् विकसित भारत रोजगार एवं आजीविका मिशन ग्रामीण अर्थात बीबीजी रामजी अधिनियम सफलतया प्रभावशील अभवत्। मंत्रिणा अद्य दृश्य श्रव्य माध्यमेन अस्य अभियानस्य अन्तर्गतं राज्येभ्यः 25,000 कोटि रूप्यकाधिक धनं च प्रदत्तम्। श्री चौहानेन सर्वेषां राज्यानां केन्द्रशासित प्रदेशानां च ग्रामीण विकास मन्त्रिभिः साकं वीबीजी रामजी अधिनियमस्य क्रियान्वयस्य प्रगतेः समीक्षा अपि कृता। तेन प्रोक्तं यत् अद्य विमुक्तायाः प्रथमांश धनराशेः मुख्यमुद्देश्यं राज्यानां पार्श्वे पर्याप्तनिधेः सुनिश्चयनम् अस्ति, येन श्रमिकाणां वृत्तिः 15 दिनानाम् अभ्यन्तरे एव प्रदातुं शक्येत।
मनरेगा को पूरे देश में लागू करने में 3 साल लगे थे, लेकिन मुझे आप सब पर गर्व है, 1 साल 2 साल नहीं, पहले दिन ही विकसित भारत जी राम जी योजना एक साथ पूरे देश में लागू हो गई। 100 दिन नहीं, अब 125 दिन रोजगार, 5 साल में 7.5 लाख करोड़ से ज्यादा की राशि 2,86,000 पंचायतों में ठीक से लग गई, तो गांव संपूर्ण विकसित हो जाएंगे, समृद्ध और विकसित गाँव का निर्माण हो जाएगा।
इंस्टाग्राम इति सामाजिक संवाद मंचे सशुल्केषु विज्ञापनेषु प्रचलतः बालयौन शोषण सामग्र्याः गंभीरं वृत्तान्तं मत्वा भारत सर्वकारेण मेटा इत्यस्याः संस्थायाः कृते एका तीक्ष्णा दृढा च सूचना प्रसारिता। आधिकारिक स्रोतोभिः ज्ञापितं यत् सर्वकारेण इंस्टाग्राम प्रशासनं तादृशां सर्वेषाम् अपमानास्पद सामग्रीणां विज्ञापन प्रसारणं प्रवेश सुविधां च सद्यः प्रतिरोद्धुं समादिष्टम्। केन्द्रीय इलेक्ट्रॉनिक्स एवं सूचना प्रौद्योगिकी मन्त्रालयेन अस्य विषयस्य गभीरतां वीक्ष्य मेटा संस्थायाः 7 दिनानाम् अभ्यन्तरे विस्तृत स्पष्टीकरणं याचितम्। सर्वकारः सम्प्रति अस्यापि पुनरीक्षणं करोति यत् अयं मञ्चः भारतस्य मध्यस्थ सुरक्षा मार्गदर्शिकानां निष्ठापूर्वकं पालनं करोति न वा। उल्लेखनीयं वर्तते यत् भारते डिजिटल नियमस्य अन्तर्गतम् आपत्तिजनक सामग्र्यः बालयौन शोषण सामग्र्यः वितरणं प्रसारणं च कश्चन दण्डनीय अपराधो वर्तते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। छत्तीसगढ़ राज्यस्य प्रख्याता पाण्डवनी गायिका पद्म विभूषण पुरस्कारेण अलंकृता च डॉक्टर तीजनबाई अद्य इहलोकं परित्यज्य दिवंगता। सा दीर्घकालात् रुग्णा आसीत्। रायपुर नगरस्य एम्स चिकित्सालये तस्याः उपचारः प्रचलन् आसीत्। अद्य सायं दुर्ग जनपदस्य गनियारी इत्यत्र तस्याः पैतृके ग्रामे पूर्ण राज्य सम्मानेन साकं तस्याः अन्त्येष्टि संस्कारः विधास्यते। स्वकीयेन प्रखरेण स्वरेण मञ्चस्य सम्मुखक उपस्थित्या तथा च कथावाचनस्य अनन्य शैल्या डॉक्टर तीजनबाई पाण्डवानी कलायै न केवलं भारते अपि तु वैश्विकपटले नूतनम् अभिज्ञानं प्रदत्तवती। मञ्चे महाभारतस्य कथाः जीवन्तं कर्तुं तस्याः असाधारण क्षमतया सा भारतीयलोकसंस्कृतेः सर्वोत्कृष्टा लब्धप्रतिष्ठा च साधिका सञ्जाता। भारतीयलोककलायां तस्याः अप्रतिम अवदानस्य कृते सा पद्मश्री पद्मभूषण तथा च पद्मविभूषण इत्यादिभिः देशस्य सर्वोच्च नागरिक सम्मानैः विभूषिता आसीत्। राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति सीपी राधाकृष्णन, प्रधानमन्त्री नरेन्द्र मोदी च तस्याः दुःखद निधने गभीरं शोकं प्रकटितवन्तः। भारतीय ऋतु विज्ञान विभागेन अद्य गुजरात, कच्छ, कोंकण, गोवा, मध्य महाराष्ट्र, ओडिशा चेत्येते राज्येषु अतिवृष्टेः रक्तवर्णीय संचेतना प्रसारिता। विभागेन विज्ञापितं यत् आगामिषु चतुर्षु दिवसेषु मध्यभागे उत्तर अरब सागरस्य कतिपयेषु भागेषु गुजरात प्रान्ते तथा च हरियाणा, पंजाब, राजस्थान प्रान्तानां शिष्टेषु क्षेत्रेषु च प्राविट स्थितिः सर्वथा अनुकूला वर्तते। अद्य ऋतु विज्ञान विभागेन छत्तीसगढ़, मध्यप्रदेश, राजस्थान, कर्नाटक, उत्तराखण्ड चेत्येतेषु राज्येषु अतिवृष्टेः पूर्वानुमानं कृतम्। अनेन साकमेव आगामिषु द्वित्रेषु दिनेषु दिल्ली, उत्तरप्रदेश, पंजाब च चण्डीगढ़ क्षेत्रेषु विकीर्णरूपेण वृष्टेः संभावना प्रकटिता। विभागेनाद्य हिमाचल प्रदेश, झारखंड, केरल, माहे, मराठवाड़ा देशस्य उत्तर पूर्वीय भागेषु सहैव उत्तर आंतर कर्नाटक तेलंगाना क्षेत्रं यावत् अतिवृष्टेः अनुमानं विहितम्। राष्ट्रीय राजधान्यां देहल्याम् अद्य सामान्यतः मेघाच्छादनेन सह वृष्टिः भविष्यति इति ऋतुविज्ञान विभागेन पूर्वानुमानितम्। संसदः प्राइवेट सत्रम् अस्य मासस्य विंशतिः दिनांकतः आरप्स्यते, यत च अगस्त मासस्य त्रयोदश दिनांकं यावत् प्रचलति। केन्द्रीय संसदीय कार्यमंत्री किरेन रिजिजू ज्ञापितवान् यत् राष्ट्रपतिः द्रौपदी मुर्मुः संसदः प्राइवेट सत्रस्य आह्वानार्थं सर्वकारस्य प्रस्तावं सहर्षं स्वीकृतवती। श्वः आरभमाणा प्रधानमन्त्रिणः नरेन्द्र मोदिना इण्डोनेशिया देशस्य आधिकारिकी यात्रा उभयो देशयो पारस्परिक सम्बन्धाय नूतन उत्साहं प्रदास्यति। सहैव सहयोगस्य नवीन क्षेत्राणि अपि उद्घाटयिष्यति। अद्य जकार्ता नगरे आकाशवाण्या साकं विशेष वार्तालापे इण्डोनेशिया देशे नियुक्तः भारतीय राजदूतः संदीप चक्रवर्ती प्रावोचत् यत् जुलाई मासस्य 6 दिनांकतः जुलाई मासस्य 8 दिनांकं यावत् प्रचलन्त्यां प्रधानमन्त्रिणः अस्यां यात्रायां भारत इण्डोनेशिया देशयो मध्ये सहयोगस्य अनेकानि नूतनानि द्वाराणि उद्घाटितानि भविष्यन्ति तथा च एतयोः द्वयोः विशालराष्ट्रयोः मध्ये प्रगाढ़ संबंधाः, आर्थिक सहभागिता च स्पष्टरूपेण द्रक्ष्यन्ते। तेन अग्रे प्रतिपादितं यत् भारत इण्डोनेशिया देशयो मध्ये किमपि वैमत्यम् अथवा विचार भिन्नता नास्ति, अतः सम्प्रति उभे अपि राष्ट्रे विकसित भारत तथा च स्वर्ण इण्डोनेशिया इत्येतयोः दूरगामी लक्ष्याणां प्राप्ते सुदृढं रणनीतिक सहयोगं कर्तुं तत्परे वर्तेते। आईसीसी महिलावर्गस्य विंशतिः प्रतिविंशतिः क्रिकेट विश्वचषक स्पर्धायाः अन्तिमे द्वन्द्वे अद्य सायंकाले लॉर्ड्स क्रीडांगणे इंग्लैण्डदलम् आस्ट्रेलियादलेन सह स्पर्धिष्यते। उभौ दले सम्पूर्णस्पर्धायाम् अपराजिते स्तः। ध्येयास्पदं वर्तते यत् प्रागुपान्त्यस्पर्धायाम् आस्ट्रेलियादलेन वेस्टइंडीजदलं पराजित्य अपि च इंग्लैण्डदलेन दक्षिणाफ्रीकादलं पराजित्य अन्तिमस्पर्धायां प्रवेशो अधिगतः। मुख्यवार्ताः पुनरेकवारम्। होर्मुज जल डमरू मध्ये इत्यनेन माध्यमेन एलएनजी जलयान प्रेषणस्य पुनः प्रारम्भात् अनन्तरं भारत सर्वकारेण प्राकृतिक वायु आपूर्तौ आपत्कालिकः प्रतिबन्धः निरस्तीकृतः इति वार्ताः।